सर्वेषां स्वागतं प्रार्थनया आरम्भं कुर्मः शुक्लां भरतरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सरस्वति नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ सहनाभवतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। अस्तु, सुभाषितम् एवम् अस्ति, बहूनाम् अल्पसाराणां संहतिः कार्यसाधिका। बहूनाम् अल्पसाराणां संहतिः कार्यसाधिका भवति इति। तृणैर्गुणत्वमापन्नैः बध्यन्ते मत्तदन्तिनः। तृणैर्गुणत्वमाप्नैः बध्यन्ते मत्तदन्तिनः। बहूनाम् अल्पसाराणां संहतिः कार्यसाधिका भवति इति अहमेव योजयामि। तृणैर्गुणत्वमाप्नैः बध्यन्ते मत्तदन्तिनः इत्युक्ते किं? बहूनाम् अल्पसाराणां संहति कार्यसाधिका भवति यथा गुणत्वम् आप्नैः तृणैः मत्तदन्तिनः अपि बध्यन्ते। सो अत्र अग्रे गच्छ। बहूनाम् अल्पसाराणाम् इत्युक्ते दुर्बलानाम्। एकः अस्ति, तस्य बलः नास्ति, दुर्बलः कार्यं साधयितुं न शक्नोति एव। परन्तु दुर्बलानां संयोगः अस्ति चेत्, मिलित्वा कार्यं कुर्वन्ति चेत् कार्यसिद्धिं प्राप्नोति। सो अत्र उदाहरणम् एवम् अस्ति। संहतिः इत्युक्ते गुणत्वं मल्टिप्लै इति। संहतिः संयोगः शक्तिवर्धनं प्राप्नोति। कः शक्तिवर्धनं प्राप्नोति मिलित्वा अस्ति चेत्? तृणं साधारणतया दुर्बलः खलु, वृक्षः इव बलं नास्ति। तृण इत्युक्ते ग्रास्, तत्र दुर्बलः एव। परन्तु मिलित्वा रज्जुं कुर्मः चेत् गजमपि बद्धुं समर्थः भवति। दन्तिनः इत्युक्ते गजः, दन्तः अस्ति, अतः दन्तिन् इति मूलरूपं। दन्तिनः गजाः अपि बध्यन्ते। के बध्यन्ते? तृणैः, मिलित्वा तृणैः बद्धुं शक्नुवन्ति। एकं तृणं तादृशशक्तिं न प्राप्नोति। अस्तु, सामान्यतया तृणानि दुर्बलानि भवन्ति। यदि वयं समूहरूपेण मिलित्वा तानि एव तृणानि ग्रतनं कुर्मः, ग्रतनम् इत्युक्ते रज्जुविव, ग्रतनं कुर्मः, एकां रज्जुं निर्मापयामः, तर्हि तस्याः एका महती शक्तिः भवति। तृणैः निर्मितैः रज्जुभिः वयं गजं बन्धुं शक्नुमः। सामान्यगजमेव न, मत्तं गजमपि बन्धुं शक्नुमः। साधारणगजस्यापि शक्तिः अधिका अस्ति। मत्तगज इति अस्ति चेत् बहु अधिका शक्तिः अस्ति। तादृशगजमपि बद्धुं शक्तिं प्राप्नुवन्ति एवं वयं कुर्मः चेत्। कारणं किम्? ग्रथिततृणैः शक्तिः सम्पाद्यते, एवं तृणैः मिलित्वा एतादृशशक्तिं प्राप्नोति। एवमेव सामान्याः जनाः असङ्गटितः इत्युक्ते एकाकी, सङ्घटं विना, मिलित्वा विना एकाकी स्थितैः अत्यन्तं दुर्बलाः एव जनाः। परन्तु ते यदा सङ्घटिताः भवन्ति, सो प्रथमम् एतत् वोढुं शक्तिः नास्ति तस्य, एकः एव एतादृशं कार्यं कर्तुं शक्नोति चेत् न शक्नोति। किमर्थं? दुर्बलः अस्ति। निश्चयेन सङ्घटिताः भवन्ति चेत् बलिष्ठाः भवन्ति। बलिष्ठाः इत्युक्ते बलयुक्ताः। एवं मिलित्वा कार्यं कुर्मः चेत् सुलभतया एतादृशं कार्यं कर्तुं शक्नुवन्ति, महत् कार्यं साधयितुं शक्नुवन्ति। सङ्गे शक्तिः अस्ति, सङ्गं कुर्वन्तु, मिलित्वा कार्यं कुर्वन्तु इति सुभाषितस्य तात्पर्यम् अस्ति। सङ्घटनेन यत् किमपि महत् कार्यं साधयितुं शक्यते इति सुभाषितं तृणरज्जोः उदाहरणेन दर्शयति। उत्तमसुभाषितं खलु? बहु उत्तमसुभाषितं। पुनरेकवारं पश्यामः। बहूनाम् अल्पसाराणां सङ्घतिः कार्यसाधिका, तृणैर्गुणत्वमापन्नैः बध्यन्ते मत्तदन्तिनः अपि इति सुभाषितम्। प्रश्नः अस्ति वा सुभाषितविषये?
Multiplied.
Like when we say 2 times 4, we say dve guna.
Exponential.
Multiplied. Okay. Multiplied by 4. Like gunitam. गुणितम् इति अर्थः पश्यामः, सन्देहः अस्ति चेत्
मल्टिप्लैड् उन्ति भगिनि,
मल्टिप्लैड् या गुणित मल्टिप्लैड्, सो अत्र अपि मल्टिप्लैड्, सो तस्य गुणः गुणितं भवति, गुणत्वं गुण अपि तथा एव वा इति पश्यामि। गुणत् मल्टिप्लिकेशन् गुणनमपि तथा एव, गुणन गुणित अर्थः समानार्थः। अस्तु, विलक्षणं वाक्पाटवम् इति कथायाः नाम अस्ति। अद्यतनकथा इत्युक्ते प्रतिदिनं कथामाला इति कार्यक्रमः भवति, प्रतिदिनं त्रिवारं भवति। इत्युक्ते किं, US केनडा जनाः अत्र सायङ्काले अथवा रात्रौ सार्धनववादने वयं कुर्मः। अतः भारते कदा भवति? अष्टवादने वा, प्रातःकाले अष्टवादने भवति, प्रातःकाले प्रतिदिनं भवति,
अष्टवादने भवति भगिनि,
अष्टवादने भवति, प्रतिदिनं श्रोतुं शक्नुमः वयम्। अपि च लण्डन् जनाः अपि कुर्वन्ति, परन्तु तत् मध्यरात्रौ भवति, एकवादने वा किमपि तादृशम्। अपि च अहं चिन्तयामि, सिङ्गपूर् जनाः अपि कुर्वन्ति तस्य समयः अस्ति. अहं चिन्तयामि सायङ्काले सप्तवादनं वा. So atra I think
8 in the morning in India means 10:30 morning in Singapore.
What I'm saying is Singapore team also they will do their Kathamala and so that will be very convenient. The reason I'm saying is very important to listen to stories. Okay, aham ek nimisham, I just want to verify the time. That is 7 p.m. India time. Aham preshyami. So 7 p.m. India time pratidinam they will take up two slokas from Bhagavad Gita apicha ekam katha. So adyatana katha evam asti vilakshanam vak patavam iti. Vilakshanam ityukte etadrisham purvam na drishtavantah न लक्षितवन्तः. अतुल्यम् इत्युक्ते इन्कम्पेरबल् भिन्नं डिफ्रेण्ट् एतादृशं विलक्षणं वाक् पाटवं वाक् सामर्थ्यं कस्य वाक् सामर्थ्यम् इति पश्यामः. अस्तु अञ्जुबाला दिल्लीतः लिखितवान्. अस्तु कोऽपि पठति वा? श्रीनिवासमहोदय भवान्.
आं भगिनि, दक्षिणभारते लब्धजन्मनः तेनालीरामस्य ख्यातिं श्रुत्वा दिल्लीश्वरः बाबरः कदाचित् तं स्वस्य आस्थानं प्रति निमन्त्रितवान्. सः तेनालीरामस्य बुद्धेः परीक्षणं कर्तुम् इच्छति स्म.
अस्तु, लब्धजन्मनः इत्युक्ते सो वी आर् टाकिङ्ग् अबौट् हिम्. सो अत्र तेनालीरामस्य इति षष्टिविभक्ति, सो अतः जन्मनः अपि षष्टिविभक्ति एव. जन्म इति नपुंसकलिङ्गपदं सो अत्र अत नपुंसकलिङ्गपदम् अस्ति चेत् जन्मनः इति भवति. लब्धजन्मनः यः जन्म प्राप्तवान् तस्य इति अर्थे. लब्ध इत्युक्ते प्राप्तवान्, जन्म प्राप्तवान्. दक्षिणभारते ही वास् बोर्न् इन् सौत् इण्डिया. दक्षिणभारते जन्म प्राप्तवान् तेनालीरामः तस्य इति अर्थे.
ख्यातिं श्रुत्वा दिल्लीका राजा दिल्लीका महाराज सुल्तान् बाबर् तस्य दिल्ली निमन्त्रितवान्
आगच्छतु, दिल्ली दिल्लीम् आगच्छतु
इति आज्ञा दत्तवान्. सः तेनालीरामस्य बुद्धैः परीक्षणं कर्तुम् इच्छति
सम्यक्
सूचितवान्
आगच्छतु इति. अत्र दक्षिणभारते ख्यातिं दिल्लीश्वरः, दिल्लेः दिल्ल्याः ईश्वरः इति राजा नेता इति. बाबरः कदाचित् तं स्वस्य आस्थानम् इत्युक्ते सर्वदा तथा एव भवति. आस्थानम् आरात्रि इत्युक्ते सम्पूर्णरात्रि. आदिनम् आजन्म इति लैक् सम्पूर्णस्थानम् इत्युक्ते वासस्थानं तथा एव भवति इति. वासस्थानं निमन्त्रितवान् आगच्छतु इति आहूतवान् धन्यवादः महोदय आहूतवान् अस्तु अम्ब अग्रे
तेनालीरामोऽपि राज्ञा कृष्णदेवेन प्रेरितः सन् तत्र गतवान् विभिन्नैः कौतुकैः निजवार्ताभिश्च तत्रत्यान् वासदः वासयितुं सः अचेष्टत् किन्तु तेन सफल्यं न प्राप्तं कारणं तु स्पष्टमेव आसीत् राज्ञा बाबरेण आज्ञाकृता आसीत् यत् न कोऽपि हसेत् इति एवमेव पञ्चदशदिनानि गतानि
अस्तु
तेनालीरामोऽपि राज्ञा कृष्णदेवः प्रेरितः
तेनालीरामस्य राजा अस्ति आसीत् कृष्णदेवः कृष्णदेवः किम् उक्तवान् तत्र गच्छतु इति उक्तवान् वा मा गच्छतु इति उक्तवान् वा प्रेरितः सन् इत्युक्ते तत्र गच्छतु किमपि नास्ति गच्छतु इति अतः सः तत्र गतवान् वा कुत्र गतवान् तेनालीरामः
कृष्णदेवराय
समीपं कृष्णदेवरायः राजा तस्मिन् स्थाने तेनालीरामः वसति कृष्णदेवरायः वदति बाबरः पृच्छति अतः दिल्लीं गच्छतु इति कुत्र गतवान् सः दिल्लीं गतवान् सो अतः तेनालीरामः जानाति तत्र गत्वा ते मां परीक्षां करोति अतः अहं बहु हास्ययुक्त कौतुकैः आनन्ददायकवचनैः कौतुकैः इत्युक्ते आनन्ददायकवचनैः आश्चर्यदायकनिजवार्ता सर्वं सङ्गृह्य तत्र गत्वा सभाजनान् हासयितुं हसनं कारयितुम् अचेष्टः प्रयत्नं कृतवान् किमपि सः तान् इम्प्रेस् कर्तुं हासयितुम् इति हसनं कारयितुम् अहम् एवं वदामि ते सर्वे हसन्ति इति तादृशकथां तादृशवार्तां सर्वं सङ्गृह्य तत्र गत्वा अधिकप्रयत्नं कृतवान् किन्तु किम् अभवत्
साफल्यं न
प्राप्तवान् इत्युक्ते कः अर्थः सभाजनाः हसन्ति वा न हसन्ति वा
न हसन्ति
किमर्थम् किम् आज्ञां कृतवान् कोऽपि न हसेत् एवमेव तिष्ठन्तु हसनं मा कुर्वन्तु इति कति दिनानि गतानि पञ्चदशदिनानि गतानि एवमेव प्रयत्नं कुर्वन् पञ्चदशदिनानि गतानि धन्यवादः चम्पा भगिनी अग्रे
एकदा प्रभातकाले भ्रमता राज्ञा राजमार्गपार्श्वे गर्तं अटनोत्सि भगिनी गर्तं खनन् नत्पृष्टः अतिवृद्धः कश्चन जनः द्रष्टः सः तं वृद्धम् अपृच्छत् भोः किमिदं करोषि वृद्धः
एवं पर्याप्तं भगिनि किम् अभवत् अत्र प्रातःकाले भ्रमणं कर्तुं राजा गतवान् तस्मिन् समये किं दृष्टवान् राजपार्श्वे
गर्तं खनन् नत् पृष्ट
सो अत्र गर्तम् इत्युक्ते होल् गर्तं खननम् इत्युक्ते सः गर्तं करोति गर्तं करोति नत पृष्ठः नत इत्युक्ते बेण्ट् लैक् दिस् फार्वर्ड् बेण्डिङ्ग् फार्वर्ड् वयं वदामः खलु नमामि इति वदामः चेत् अस्माकं शिरः एवं नतं भवति इट् इस् कमिङ्ग् फार्वर्ड् इति नत पृष्ठः पृष्ठभागः बेक् back is bent forward iti nata prishtaha ativruddha ekah janah asit janah drishtaha saha tam kim prishtavan raja
poho kim idam karoshi
kim karoti kim karoshi tvam kim karoshi iti prishtavan धन्यवादः भगिनी अग्रे
धन्यवादः
जयश्री भगिनी
ऐ एम् स्टिल् रिकवरिङ्ग् फ्रम् काफ् ऐ विल्
बी कोट् भगिनी नास्ति चिन्ता भगिनी ओके अहम् ऐ रिमेम्बर् नौ लता भगिनी अग्रे
आं भगिनि वृद्धः विनम्रतया उक्तवान् अत्र आम्रस्य बीजं रोपयामि बाबरः अपृच्छत् त्वं तु अस्य फलस्य सेवनं स्वजीवने कर्तुं न अर्हसि एवं स्थिते किम् एतेन वृतायासेन वृद्धः उक्तवान् विनम्रतया उक्तवान् अद्य अत्र अहम् आम्रस्य बीजं रोपयामि मीन्स् प्लाण्ट् भगिनि
आरोपयामि
आरोपयामि बाबरः अपृच्छत् किन्तु आम्रस्य फलं भवान् खादितुं न शक्नोति बहु वर्ष भविष्यति वर्षाः भविष्यति फलं लब्धुं सो वयर् एवं स्थिते किम् एतेन वृतायासेन किं व्यवर्थं कार्यं करोति इति पृष्टवान्
व्यर्थं कार्यं किमर्थं करोति धन्यवादः भगिनि एकः श्लोकः अस्ति खलु विनायासेन मरणं विनायासेन सो अत्र एव यासम् इत्युक्ते अधिककष्टं प्रयत्नं न कष्टम् अहं सम्यक् न लिखितवती कष्टं वृथा कष्टेन किं प्रयोजनम् इति कष्टं विना यासः इत्युक्ते कष्टं विना यासेन मरणम् इति श्लोके अस्तु अग्रे निर्मला भगिनी
तदा वृद्धः अवदत् महाराज अन्येषां कृते यत् क्रिये तदेव वस्तुतः फलदायकं मम पित्रा तदेव कृतम् अहमपि तदेव करोमि कश्चित् आस्वादयिष्यति अस्य फलानि फलानि और् फलानि फलानि
फलानि
फलानि तद्विषये अहं न चिन्तयिष्यामि. वृद्ध उक्तवान् अन्ये रोपयति क्रियेत् तदेव वस्तुतः फलदायकम्. How to translate, I don't know, Bhagini.
So, anyasya krite, mama krite na, anyasya krite kimapi kurmaha che, tatra eva palam adhikam asti. Pala dayakam itikte, palam dadati. Tadrisha karyam eva palam dadati. Pala dayakam karyam bhavati. Anyesham krite yat vayam kurmaha. Mama pita eva meva... कृतवान् अहमपि तथा एव करोमि इति. वस्तुतः इत्युक्ते एक्चुलि इत्युक्ते वयम् अन्येषां कृते कार्यं कुर्मः.
That means that itself is a fruit.
That itself is a fruit. Pleasing others is a fruit.
Bhagini.
Other people happy. Bhagini वदतु. आस्वादम् इत्युक्ते टु एन्जाय् टु एन्जाय् सन्तोषेण खादिष्यति इति. कश्चित् इत्युक्ते अन्य कोऽपि सन्तोषेण खादिष्यति अस्य फलानि. चिन्तयिष्यामि तद्विषये अहं न चिन्त्य अहं न खादामि किमर्थम् अहम् एवम् आरोपयामि इति अहं न चिन्तयामि. अन्य वरि अबौट् वाट्स् इन् इट् फार् मी अहं किमर्थं करोमि इति अहं न तादृशं न चिन्तयामि. मम पित्रा तदेव कृतम्. सो अत्र कर्मणि प्रयोगे अस्ति पित्रा कृतम् इति. मम पिता तदेव कृतवान् इति कर्तरि प्रयोगे भवति. धन्यवादः. अस्तु अग्रे साजरि भगिनि.
एतत् श्रुत्वा बाबरः प्रसन्नतया युक्तम् एतत् अयि परोपकारिन् स्वीकुरु एतं धनस्युतम् इति उक्त्वा एकं धनग्रन्थिम् अयच्छत्. बाबरः प्रसन्नं became happy. I don't know what, how to say that. Vriddhah vata shrutva babarah bahu prasannah
abhavat.
प्रसन्नः अभवत्. यस् प्रसन्नः अभवत्. सः एक धनसूतं तस्य दत्तवान् तस्मै दत्तवान्.
परोपकारिन् इति उपकारं करोति.
वृद्धः I'm not able to say today, Bhagini, in Sanskrit. He is, you know, helping other people.
other people.
He's not thinking about himself.
Satyam. Paranam kute upakaram karoti. Paranam kute upakaram. Sahayam karoti.
Svachintanam?
Svachintanam nasi. Svasya kute na karoti. Paranam kute eva karoti. Ataha saha paropakari kari. Kari iti bhavati. Karin iti pratipadika. Paropakari iti bhavati. Dhana granthim iti te bundle. Dhana granthim. Dhanasyutam iti. Dhanyavadaha. Savitabai.
Yuktam eva etas, what does that mean?
Yuktam means appropriate. Uchitam. Samichinam. Samichinam uktavan. Uchitam. Very appropriate iti.
Can we say saha prasanna bhutva?
Prasannaha bhutva.
Prasannaha bhutva, okay. That's the same as saying being happy, right?
Okay. Atva prasannaha san appear, we can say. Becoming happy.
Yeah, I just wanted to know if there was a word bhutva.
Bhutva, asti asti, asti. Savita Bhagini agree.
Bhagini. Tada Vriddha Akathayat. Jagat Rakshakaha. Kripa Parayana. Janahatu Sasyasya Aropanasya Panchashanam Varshanam Anantaram Palani Prapsyanti. Param Aham Tu पादपारोपणात् पूर्वमेव फलम् अविन्दम् अहो परहितचिन्तनस्य कीदृशः सुपरिणामः
ब्यूटिफुल्
आं भगिनि
बहु उत्तमं
तदा वृद्धः कथयत् जगत्रक्षकः कृपापरायणः जगत्रक्षक मीन्स् द Savior of the world, isn't it?
Jagat Rakshaka.
It's used to address a king, isn't it? Jagat Rakshaka, okay. Kripa Parayanaha means oh merciful, isn't it?
merciful.
Janaha tu sasyasya aropanasya panchashanam varshanam anantaram palani prapsyanti. Vridaha nambagini.
Ekanimsha Bhagini, so this is an expression, panchasha. Like when we say two or three, we don't say dveva, triniva, we say dvitra, like that. So eva, five or six, we say panchasha, like that. Panchashana, so together it is panchashana. So that is an expression like that. Panchasha.
Five or six.
Varshanam anantaram. Yeah. Anantaram bhavati che shashti vibhakti bhavati. Anantaram phalani prapsyanti.
Vridaha. Vridaha. Babarasya kateti. पञ्चशानां वर्षाणाम् अनन्तरं फलानि प्राप्स्यन्ति परमहं तु पादपारोपणात् पूर्वमेव फलम् अविन्दम् दिस् सेण्टेन्स् ऐ एम् नाट् गेटिङ्ग् भगिनि अहं तु
सो अत्र दिस् वण्डर्फुल् वर्ड् फार् वृक्ष ओके पादप इत्युक्ते पादेन पिबति कः पादेन पिबति पादप आरोपणात् अहम् आरोपणं कृतवान् पादप आरोपणात् पूर्वमेव अविन्दम् इत्युक्ते प्राप्तवान् इति साधारणतया सः वदति पञ्चशानां वर्षाणाम् अनन्तरमेव फलानि प्राप्स्यन्ति इत्युक्ते आम्रफलानि प्राप्स्यन्ति फलं वृक्षस्य आरोपणस्य फलम् अनन्तरमेव प्राप्नुमः वयं परन्तु इदानीम् अहं अहम् आरोपणमपि न समाप्तितवान्, परन्तु ततः पूर्वमेव फलं प्राप्तवान् अहम् इति. अन्तिमं भगिनि, अहो
अहो परहितचिन्तनस्य कीदृशः सुपरिणामः. वृद्धः अवदत् परहितचिन्तनस्य सुपरिणामः प्राप्तितवान्
प्राप्तवान् अहं प्राप्तवान् अहो परहितचिन्तनस्य कीदृशः
सुपरिणामः.
उत्तमं, वेरि वेल् रिटन्. कीदृशः परिणामः जनरलि मीन्स् एफेक्ट्, दि एफेक्ट् आफ् द रिसल्ट्. सो हियर् वी केन् से फलं रिसल्ट्, फलम् एतादृश. प्रश्नः वा?
थिङ्किङ्ग् आफ् द अदर्स् बेनिफिट् and that is the benefit he is getting.
Yeah, that is the benefit. Immediately I got benefit. I got benefit.
Or something
beginning. Actually got money. Asa, prashna hasitva, bagini?
Avindam or kim? Avindam.
Padaparopana, is that a samasa word?
Padapasya aropanat. पादपारोपणात् आम् समासपदमेव. अस्तु भगिनि, चम्पा भगिनि.
अविन्दम् अर्थं किम्?
अविन्दम् इत्युक्ते प्राप्तम्. फलं फलं प्राप्तम्, आक्चुलि प्राप्तवान् अविन्दम्. सो दिस् इस् लङ्लकाररूपम्.
धन्यवादः.
उत्तमपुरुषः अहम् अविन्दं. सम्यक्. अस्तु, उषा भगिनी अन्तिम.
नृपतिः तद्वचनैः प्रसन्नः भूत्वा.
गाट् वाट् यु सेड् भगिनि, प्रसन्नः भूत्वा.
द्वितीयमपि सुवर्णमुद्रापूर्णं स्यूतम् अयच्छत्. नृपतिः तद्वचनैः प्रसन्नः भूत्वा द्वितीयमपि सुवर्णमुद्रापूर्णं स्यूतम् अयच्छत्. हि गेव् अनदर् वन्. सः द्वितीय व्यक्तिः द्वितीयव्यक्तिः अपि सुवर्णमुद्रा पूर्णं स्यूतं दत्तवान्.
द्वितीयं स्यूतमपि दत्तवान्. द्वितीयव्यक्तिः किमर्थम्?
टु द सेम् पर्सन्.
द्वितीयमपि द्वितीयमपि दत्तवान्.
वृद्धः पुनः अवदत्, भवतः महान् अनुग्रहः एव, तरुः प्रतिवर्षम् एकवारं फलं यच्छति, किन्तु वृक्षारोपणदिवसे द्विवारं मां पुरस्कृत्य भवान् नवीनम् उदाहरणं प्रस्तुतवान्. ऐ डिन्ट् अण्डर्स्टाण्ड् ऐ रेड् तरुः प्रतिवर्षं. तरुः इत्युक्ते
तरुः इत्युक्ते वृक्षः, अन्यनाम वृक्षः, पादपः इति.
तरुः प्रतिवर्षम् एकवारं फलं यच्छति इत्युक्ते तद् तरुः प्रतिवर्षम् एकवारमेव फलं ददाति. किन्तु वृक्षारोपणदिवसे
दिने
द्विवारं मां पुरस्कृत्य भवान् नवीनम् उदाहरणं प्रस्तुतवान्
इत्युक्ते किं? सो अत्र तरुः प्रतिवर्षम् एकवारमेव फलं ददाति, परन्तु वृक्ष आरोपणदिने द्विवारं मां भवान् पुरस्कृत्य सम्मानं दत्त्वा इत्युक्ते धनं दत्त्वा नवीनं नूतनम् उदाहरणं प्रस्तुतवान् दर्शितवान् इत्युक्ते आरोपणस्य फलं भवान् उदाहररूपेण दर्शितवान् इति. न अग्रे अस्ति
भगिनि. द्विवारं कथं द्विवारं
प्रथमं दत्तवान्. प्रथमं सः दत्तवान् परोपकारी स्वीकरोतु इति एकवारं दत्तवान्. अनन्तरं सः वदति पञ्चशानाम् अनन्तरं एव फलं प्राप्नुमः, परन्तु मम पादपारोपणपूर्वे फलम् अहं प्राप्तवान् इति सुन्दररीत्या सः उक्तवान्. तत् दृष्ट्वा पुनरेकवारं सः दत्तवान् मुद्रापूर्णं स्यूतं द्वितीयमपि सेकेण्ड् द्वितीयमपि द्विवारं सो द्विवारं दत्तवान्. सो अतः सः वदति भवतः अनु भवतः महा अनुग्रहः एव इत्युक्ते भवान् बहु दयालुः अनुग्रहः एव दयालुः तरुः प्रतिवर्षम् एकवारमेव फलं ददाति, परन्तु वृक्षारोपणदिने द्विवारं मां पुरस्कृत्य इत्युक्ते गिविङ्ग् प्रेसेण्ट् पुरस्कारम्.
Bhagini, what is the difference between divase and dine? You said vriksharopana divase, it's the same, right?
Same. Anya pada. Taruhu, vrikshaha, padapaha, samana. Samana artha, parantu binna pada. Puraskritya bhavan navina udaha. Kim of that?
Puraskritya is rewarding, right?
Rewarding. Sammanam dattva. Sammanam dattva prastutavan. दर्शितवान् इति. अस्तु अग्रे भवान् एव महोदय.
बाबरः तस्य वाक् पाटवं दृष्ट्वा सन्तुष्टः सन् तृतीयं स्यूतं प्रदाय यटिति झटिति ततः गन्तुम् ऐच्छत्. तावता सः वृद्धः स्वकञ्चुकम् अपनीतवान्. अधुना स्वसमक्षं तेनालिरामं दृष्ट्वा आश्चर्यान्वितः भूपतिः तस्य विलक्षणं कौशलं वाक्पटवं च अङ्गीकृतवान्. ओके. बाबरः तस्य वाक् चातुर्यं दृष्ट्वा अतीतसन्तुष्टवः. तृतीयं स्यूतं प्रसाय झटिति ततः गन्तुम् ऐच्छत्. ओके, ही वांट टु गिव इट
टु हिम एंड गो अवे. ततः
ततो वा वृद्धः स्वच्छरूपं
कुत्र अस्ति अक्षम्. अक्षम् इत्युक्ते वित् हिस् ओन् ऐस्. अधुना स्वसमक्षम् स्व कञ्चुकम् इत्युक्ते लैक् अङ्गवस्त्रं लैक् द वन् टाप् लैक् दट्
स्वकञ्चुकम् अपनीतवान् स्वयरूपं लेतवान् स्वयरूपम् अनुगृहीतवान् रैट्
दर्शितवान् अपन् सो अपनीतवान् इस् टु टु रिमूव् द टाप् वन् दट् ही वास् वेरिङ्ग् अनन्तरं ही शोड् हिस् ट्रू सेल्फ्
वृद्धस्य इन् प्लेस् आफ़् वृद्ध राजा सा तेनगामन्
वृद्धस्य स्थाने
तेनालिरामः रामः रामः अभवत् राजा सन्तुष्टः भव तेनालिरामस्य वाक्पटवम्
अङ्गीकृतवान् सम्यक् सो एतावत् पर्यन्तं सः चिन्तयति तेनालिरामः तादृश बुद्धिमान् नास्ति इति परन्तु इदानीं सः अङ्गीकृतवान् सः बुद्धिमान् एव इति वेरि वेल् रिटन् स्टोरि तावता
डिफिकल्ट् वर्ड् भगिनि
लाट् आफ़् डिफिकल्ट् वर्ड्स् दट् इस् I chose this story and also because today is Friday story is like this. So
Kaushalam
means? Kaushalam means the Samarthyam again. Kaushalam, Panditiyam, Naipunyam, Kaushalam, Kushalaha. So when we say Kushalaha, Saha Kushalaha Asti means a Sanskrit संस्कृतपठने कुशलः मीन्स् ही इस् एन् एक्स्पर्ट् लैक् देट् एक्स्पर्ट् नैपुण्यं पाण्डित्यं पण्डितः ही इस् एन् एक्स्पर्ट् इन् देट् भूपतिः राजा
इट्स् नाट् द सेम् वर्ड् अस् कुशलं कौशलं
Kushalam va means is everything fine like that. Kushali means are you okay like that.
Yeah, but Kaushalam means what Pratipadikam?
No, it's like Kushalata. Kushalata and Kaushalyam, same.
Mm-hmm.
Asta, idanim pustakam.
Where did you find the story, Bhagini?
Kim?
Where did you find the story?
In the Kathamala link. So this is today's story.
Oh, I see. Okay.
So Atra, if you go to...
Adya Sava, Navavadane, Kathamala Karik me Bhavati Kim, Bhagini, Etam Katha?
Etam Katha Meva Bhavati Adya. विलक्षणं वाक् वाक् पाठवम् इति
इस् दिस् इन् द टेलिग्राम् ग्रूप् द स्टोरि
इट् मे बि कमिङ्ग् देर् या बट् कदा इति न जानामि अस्तु अग्रे गच्छामः वयम् अत्र स्मः गीतासोपाने लट्तः लृट् कुर्मः चेत् सुलभः भवति इति वयं पूर्वं किं पठितवन्तः पठति पठतः पठन्ति पठिष्यति पठिष्यति पठिष्यतः पठन्ति सो सर्वदा तीतः अन्ति लट् लकारे किं भवति तथा एव लृट् लकारे अपि भवति परन्तु अपवादः एक्सेप्शन्स् अस्ति इस्य भवति इक्ष् भवति परन्तु साधारणतया इष्यति इस् द स्टाण्डर्ड् इष्यति इष्यतः इष्यन्ति परन्तु इक्ष्यति अपि भवति अथवा अक्ष्यति उदाहरणार्थं पश्यति भविष्यत्कालं किं भवति
दृश्यति
द्रक्ष्यति
द्रक्ष्यति
पुटसङ्ख्या
113
धन्यवादः महोदय 113 अपि च पिबति लट् लकारे पिबति इति अस्ति भविष्यत्काले किं भवति
पश्यति
निष्कास्यति. ओके, सो साधारणतया इष्यति एव, परन्तु इक्ष्यति अपि भवति, इष्यति अपि भवति. कदा भवति इति अभ्यासेन वयं ज्ञातुं शक्नुमः, अभ्यासेन ज्ञातुं शक्नुमः. अस्तु, सो अग्रे अग्रे गच्छामः, देन् वि केन् बिकम् फेमिलियर्, परिचित परिचयं कुर्मः लृट् लकारस्य रूपाणि कथं भवति इति. एतेषु वाक्येषु लट्लकाररूपाणां स्थाने, तस्य स्थाने, लट्लकारस्य स्थाने लृट्लकाररूपाणि प्रयुज्य वाक्यानि पुनः लिखत. यथा वयं कथायाम् उक्तवन्तः, वृद्धस्य स्थाने, तेनालिरामः आसीत् इति, तादृशम्. अस्तु, उदाहरणं, सा गीता प्रवचनं शृणोति, श्रोष्यति. ऊ बिकेम् ओ, श्रोष्यति गीता. सो आल् दीस् डिड् नाट् चेञ्ज्, परिवर्तनं न अभवत्, केवलं क्रियापदस्य परिवर्तनमेव. अस्तु, चम्पा भगिनी आरम्भं करोति वा?
आं भगिनि. कृष्णः कदा अवतरति? कृष्णः कदा अवतरिष्यति?
अवतरिष्यति. सम्यक्, कृष्णः कदा अवतरिष्यति. अस्तु, अग्रे अम्बा.
धन्यवादः.
धन्यवादः भगिनि. समस्या गीता कार्य,
तौ गीताचार्यं नमत्.
चम्पा भगिनी, अम्बा वदतु.
क्षम्यताम्,
नास्ति चिन्ता भगिनि.
तौ गीताचार्यं नमत. तौ गीताचार्यं.
सो अत्र नम् दातु नम्स् भवति, नम्स्
नम्स्यति.
नम्स्यति एकवचनं. सो अत्र तौ नम्स्यतः इति अस्ति.
नम्स्यन्ति.
नम्स्यतः. नम्स्यतः. तीतः अन्ति. एकवचनमस्ति चेत् नम्स्यति. अत्र द्विवचनम् अस्ति, तौ नमतः इति अस्ति. सो अन्ते तः, अतः भविष्यत्काले अपि तः एव, नंस्यतः. नंस्यतः इति भवति, नंस्यतः. अग्रिमं करोति वा? यूयं भक्तियोगं पठत. सम्यक्, पठिष्यत. सम्यक्. अस्तु, जयश भगिनि अग्रे.
दिस् इस् बहुवचनं.
यूयं मध्यमपुरुष.
मध्यमपुरुष.
सो अत्र सीतः अन्ति, सीतः थ मी वह मह. सो दिस् इस् मध्यमपुरुष बहुवचनरूपम्.
बट् दिस् इस् मध्यमपुरुष, वाट् इस् बहुवचनम्?
आम् आं भगिनि, त्वं युवां यूयं.
त्वं युवां यूयम्. ओके,
त्वं युवां यूयं. सो अत्र यूयं, त्वं पठ, त्वं पठ. आम्, यूयम् इति बहुवचनरूपम्. जयश्री भगिनि. ओ सारि सारि भगिनि, ऐ डिन् रियलैस्. अस्तु, धन्यवादः. लता भगिनि, क्षम्यतां, पुनः पुनः पृच्छामि. धन्यवादः. क्षम्यता
योगिनः सत्त्वं पश्यन्ति पश्यन्ति योगिनः तत्त्वं पश्यन्ति द्रक्ष्यन्ति
द्रक्ष्यन्ति योगिनः तत्त्वं द्रक्ष्यन्ति अत्र योगिन् इति मूलरूपं योगिन् एकवचनं योगी योगी योगिनौ
योगिनः
योगिनः एवं सो यु विल् रीड् अबौट् इट् मच् लेटर् योगिन् नकारान्तप्रातिपदिकम् एवं भवति योगिनः तत्त्वं द्रक्ष्यन्ति द्रक्ष्यन्ति इति भवति अस्तु अग्रे निर्मला भगिनि
वयं अतः परं न भवामः वयम् अतः परं न भविष्यामः
सम्यक् भविष्यामः भविष्यामः सो अत्र भगिनी विसर्गस्य अनन्तरं फ अथवा ख अस्ति चेत् फ अस्ति चेत् इफ् इति विसर्गस्य उच्चारणं भवति ख अस्ति चेत् एच् इव उच्चारणं भवति अत्र अतः परम् इति भवति धन्यवादः अत्र विसर्गः अस्ति तदनन्तरं फकारः अथवा फकारः अस्ति चेत् इफ् भवति विसर्गस्य उच्चारणम् इफ् इति भवति इफ् लैक् अतः परम् इफ् परम्
प अस्ति तर्हि फ उच्चारणं करोति
फ उच्चारणं न विसर्गस्य उच्चारणं इव भवति
क अस्ति तर्हि
एच् इव भवति अर्धहकारं भवति सो दिस् वन् वि काल् इट् जिह्वामूलीय जिह्वामूलीय इत्युक्ते लैक् अट् द बेस् आफ् द टङ्ग् जिह्वा लैक् द सौण्ड् डज़न्ट् कम् औट् जिह्वा अतः लैक् दट् अर्धः लैक् दट् अर्धः सो हियर् वि काल् इट् उपद्मानीय उपद्मानीय मीन्स् when we are getting ready to blow upadmani like that we are getting ready to blow tadasham eva bhavati atah itah param eva
is coming from kanta pagini
this one is kanta so it stays in the kanta this one stays in the oshta
The oshta don't join,
no? No, it doesn't join. It doesn't join like that. Like you're getting ready to blow. Atav param. Like that. Atav param.
Atav param.
Asta, agre? Agre ka?
Can you give me a word with the H pronunciation?
अतः इतः परं लैक् वेन् इति इतः इतः परम् इतः सो विसे इतः परं सो विसर्गः विल् बिकम् एच् इतः परम्
इतः
किं
शुड् बि साउण्ड् एफ् साउण्ड्
य इतः परम्
इतः परम्
We can, it's not like completely wrong, but this is how it is done, itaf param.
Are we saying F and H can be used alternatively?
Atah.
Kim Mohadeya, I didn't understand your question.
No, no, I'm confused. My point is, itat param is F pronunciation, okay. Where the H pronunciation comes?
The H pronunciation comes when it is like ka.
No, I was just asking for a word with the H pronunciation.
Okay, let me search. Krishnaha kada, but we separate Krishna.
Krishnaha, same thing. It is the same thing.
So Krishna, ekanimsha mahodaya, let me search for something.
Atah Krishna,
yeah, like that.
Okay.
I'm looking for a better example. Okay,
okay, got it.
Bhagini. Bhagini. Aham vadami va.
Vadat.
Shloke. Sarva dukkhanam.
Samyak Bhagini. I was looking for the same thing. So atra pashyantu. Duhu asti. So if you write it separately, it is uhu. But when it is together with dukkha, it is dukkha. Dukkha. So this is the H pronunciation.
So this is upadmaniya?
No, this is dikhwa mulya. Dikhwa mulya, dukkha. Dukkham anubhutavan. So we don't say dukkham anubhutavan. This is not correct. Dukkham anubhutavan is not correct, but dukkham anubhutavan. Dukkham. Atava ardha hakara. Dukkham anubhutavan. Dhanyavadah Bhagini. अहम् अग्रे गतवती वा कुत्र अस्मि अहम् अस्तु अग्रे यूयं स्वनिमित्तमेव पाकं कुरुत कस्य पर्याय मृदुमला भगिनी उक्तवती वा अस्तु सागरे भगिनि अग्रे
करिष्यत
सम्यक् करिष्यत
अर्थं किं भगिनि यूयं स्वनिमित्तमेव
स्वनिमित्तमेव कारणं निमित्तं मीन्स् कारणं You are doing it for your sake. Yeah, for your sake. Sva nimittamiva.
I think we have skipped the bhavama. Bhavama become bhavishyama, right?
No. We did this. But only then we got that atasparam. We got it. Yeah. We did that. Sharishya. Asta. Abhavat. Savita Bhagini. Agree.
Bhagini. शास्त्राणि आत्मानं न चिन्तयन्ति
शास्त्राणि
आं भगिनि शास्त्राणि आत्मानं न चिन्तयन्ति शास्त्राणि शास्त्राणि आत्मानं न
So atra this is a visheshana kriya padam so it becomes chetsyanti like that
chetsyanti
purva asti va iti pashyami chet anyway so it becomes chetsyanti nasti iti manye अस्तु सो दशेषणक्रियापदं चेत्स्यन्ति इति भवति
सो प्रातिपदिकं किं फार् दिच्छन्ति
धातु अस्ति चिद् अत्र अष्टाध्यायी मध्ये सो वेन्वर् वी हेव् अ डौट् यु कीप् चेकिङ्ग् अहं चिन्तयामि चिद् इति आर् मे बि ऐ एम् राङ्ग् छेदनं चिद् चिनत्ति
धन्यवादः
चिन्तन्ति चिन्तन्ति इति अस्ति लृट् चेत्स्यन्ति दिस् इस् अ विशेषणक्रियापदम्
अष्टानि आत्मानं न चेत्स्यन्ति
चेत्स्यन्ति
doesn't think about it, right?
But why did you say it's a visheshana kriyapadam? You mean the difference?
Yeah, because I know this from before. I got into trouble. So I said chinsyanti and then, you know, I was wrong. So I made a note in my book. Chetsyanti. Mm-hmm. Atah eva. So whenever something different, you make a note. चेत्स्यन्ति इति अस्तु अग्रे उषा भगिनि वा
तावां गीतां शृणुमः आवां मध्यम उत्तमपुरुषविवचनम् आवां गीतां श्रोष्यावः
श्रोष्यावः सो यु केन् चेक् इन् दि अष्टाध्यायी सम्यक् वा न वा श्रोष्यामः श्रोष्यामि श्रोष्यावः श्रोष्यामः अस्तु अग्रे श्रीनिवास महोदय
त्वं पापं न अनुभवसि त्वं पापं न अनुभविष्यसि
सम्यक् अनुभविष्यति सुलभः एव अनुभविष्यसि अनुभविष्यसि अस्तु चम्पा भगिनि
आं भगिनि दशमरे आवां गीतां शृणुवः आवां
न दशमः अष्टमः न दशमः
कृष्णार्जुनौ सम्भाषणं कुर्वाते
सो अत्र आत्मनेपदीरूपम् अस्ति
कृष्णार्जुनौ सम्भाषणं करिष्येते
सम्यक् करिष्यन्ते एवं सन्ति आत्मनेपदी रूपं खलु सम्यक् अत्र अपि कृ धातु अस्ति चेत् कथं भवति इति पश्यामः एतादृशं पश्यामः चेत् सो अत्र कृ धातु द्वयम् अस्ति एतदेव स्वीकुर्वन्तु डुकृन् करणे इति केवलं कृण् हिंसायां न टु किल् टु डिस्ट्राय् तथा न टु डु करण डुक्रिन् करणे सो अत्र उभयपदी अस्ति कुरुते कुर्वाते कुर्वते सो अत्र कुर्वाते आत्मनेपदी एव सो अत्र लृट् लकारः करिष्यति समानरूपं प्राप्स्यति अत्र पश्यन्तु करिष्यति करिष्यतः करिष्यन्ति करिष्यते करिष्येते करिष्यन्ते भिन्नरूपं न केवलम् अन्ते एव भिन्नम् अस्ति करिष्यते करिष्येते करिष्यन्ते इति इण्ट्रेस्टिङ्ग् खलु वेरि इण्ट्रेस्टिङ्ग् कृदातु अस्तु अग्रे अम्ब अत्र कृदातु उभयपदिदातु उभयपदि करोति कुरुतः कुर्वन्ति कुरुते कुर्वन्ति बहु भिन्नम् अस्ति लट्लकारे कुर्वाते इति द्विवचनम् अस्ति परन्तु लृट्लकारे आल्मोस्ट् समानरूपाणि केवलम् अन्तिमपदमेव भिन्नम् अस्ति करिष्यति अत्र करिष्येते करिष्यन्ते इति अस्ति करिष्येते करिष्यद्वे वेरि सो दिस् इस् केरेक्टरिस्टिक् आफ् आत्मनेपदि करिष्यद्वे करिष्यावहे करिष्यामहे एव सर्वदा पश्यन्तु अथवा अस्तु वा कोशं सर्वदा पश्यन्तु अस्तु अम्ब वयं कुरुक्षेत्रं गच्छामः
वयं कुरुक्षेत्रं गच्छामः वयं कुरुक्षेत्रं गमिष्यामः
सम्यक् गमिष्यामः एवं भवति गमिष्यामः सम्यक् सम्यक् अम्ब अस्तु जयश्री भगिनी अग्रे ओ जयश्री भगिनी न वदति क्षम्यतां 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 भगिनि लता भगिनि इदानीं वदामि
आवां सैन्यविन्यासं पश्यावः अवेन दत्तैवासो
अस्तु अग्रिमं करोतु भगिनि द्रक्ष्यावः इति भवति
द्रक्ष्यावः कौरवाः पृथक् पृथक् शङ्खान् दमन्ति दमिष्यन्ति
सो अत्र भिन्न भिन्न रूपं भगिनि अहं लिखितवती मम पुस्तके गमास्यन्ति इति सो धम् इति अस्ति इति चिन्तयामि पश्यामः ओ द्मा टुब्लो सो अहम् उक्तवती खलु उपध्मा इति उपध्लो टुब्लो सो अत्र अत्र लृट् लकारः कथं भवति इति भवति धातु अति अस्ति द्मा जिह्वा मूलीय इस्टेस् अट् द बेस् आफ् द टङ्ग् जिह्वा मूलीय अत्र द्मा उपद्मा उपद्मा वेरि वेरि क्लोस् टु ब्लोयिङ्ग् उप उप मीन्स् वेरि क्लोस् लैक् उपनयनम् इट् ब्रिङ्ग्स् यु क्लोस् टु गाड् इति उपनयनं सो उपद्मा क्लोस् टु ब्लोयिङ्ग् परन्तु नाट् ब्लोयिङ्ग् उपद्मा अस्तु उत्तम अग्रे अग्रे का निर्मला भगिनी वा निर्मला भगिनी द्रक्ष्यत् द्रक्ष्य सो अत्र युवां द्रक्ष्यत् सम्यक् द्रक्ष्यत् द्रक्ष्यत् अस्तु अग्रे सागरी भगिनी खलु
यूयं निमित्तमात्र भवत
अगेन् निमित्तं निमित्तमात्रं भवत
So you what does that mean, Bhagini?
So atra don't think you are doing everything. You are just my instrument, my karanam.
Prashna vadati.
Kim?
Prashna vadati.
So it's like saying, idam na mama, I am not doing it. Idam na mama. I am just a karanam for getting things done. So atra kata asti kalo, snake agacchati. सर्पः मारयति अन्यं मारयति. सो द किङ्ग् गेट्स् अप्सेट्. सो हि वाण्ट्स् टु किल् द स्नेक्. सो देन् कर्म कम्स् अण्ड् सेस् द स्नेक् वास् जस्ट् द कारणं हौ द मरणं हेपेण्ड्. निमित्तम् इस् कारणम्. सो यु जस्ट् सी द रीज़न् वै how I am getting things done through you. Yuyam nimitta matram bhavat.
Bhavishyata.
Yuvam.
You become an instrument.
Yeah. Bhavishyata. Astu. Agre. Savita Bhagini.
My turn, no, Bhagini?
सागरि अनन्तरं सविता अनन्तरं भवति खलु.
लोके दैवम् आसुरम् इति द्वौ विभागौ स्तः. लोके दैवम् आसुरम् इति द्वौ विभागौ स्तः. No idea, Bhagini.
So the as dhatu will become bhavishya.
As bhavishyata.
सीतः अन्ति. सो वेन् वि टेक् दि अस् धातु, अस् धातु टु गो इति न, अस् भुवि एतत् स्वीकरोतु. नाट् द फस्ट् वन् गति न. अस् अस् धातु. सो अस्ति स्तः सन्ति अण्ड् देन् लृट्लकारे इट् बिकम्स् भू धातु. भविष्यति, भविष्यतः भविष्यन्ति. So they share the same thing. Idanim bhudatum pashyamah chet. Bhudatu. Hona is not correct. To become. First one ever. So you look at the meaning. And then you select. Bhavati bhavatah bhavanti. So ऋट्लकारे भविष्यति भविष्यतः भविष्यन्ति. समानरूपम् अस् धातु. दे शेर् इट् समटैम्स्. सो अत्र भविष्यतः एवं भवति. अस्तु, उषा भगिनी.
भविष्यतः भगिनि,
भविष्यतः स्तः स्थितः अन्ति. भविष्यति भविष्यतः भविष्यन्ति.
ऐ थाट् भविष्यतः.
न, स्तः एव अस्ति खलु. भविष्यतः. अस्तु, अग्रे उषा भगिनि.
योगिनः कथं कार्यं कुर्वन्ति? योगिनः कथं कार्यं करिष्यन्ति.
अस्तु, मिलित्वा कुर्मः वा? झटिति अग्रे गच्छामः. समानमेव. नराः अनिच्छतः पापं
चरिष्यन्ति.
अनिच्छन्तः पापं चरिष्यन्ति. अस्तु, अग्रे. भवन्तः अनुद्वेगकरं वाक्यं
वदिष्यन्ति
वदिष्यन्ति समान समानमेव सुलभः एव यूयम् उद्वेगकरम् उद्वेगकरम् इत्युक्ते अजिटेटेड् अनजिटेटेड् यूयं कर्मयोगाभ्यासं कुरुत त्वं युवां यूयम् करिष्यत कृधातु एवम् एवम् एवं भवति अस्तु यतोदाहरणं प्रश्नस्य उत्तरं लिखत भवान् भवती श्वः किं करिष्य एवं किं खादिष्यति अहं श्वः पूरिकां खादिष्यामि अस्तु प्रातः कदा उत्थास्यति एकमेकम् अस्तु श्रीनिवास महोदय प्रातः कदा उत्थास्यति
प्रातः षड्वादने उत्थास्यति
उत्थास्यामि सम्यक् अस्तु चम्पा भगिनी भवती कुत्र गमिष्यति श्वः
अहं श्वः मन्दिरं गमिष्यामि
उत्तरमन्दिरं गमिष्यामि अस्तु अम्ब भवती मध्याह्ने कुत्र गमिष्यति
अहं मध्याह्ने आपणं गमिष्यामि
उत्तमं कस्मिन् आपण न चिन्ता नास्ति अस्तु लता भगिनी
सायंकाले किं करिष्यति सायंकाले श्लोकं वदिष्यामि श्लोकाः वदिष्यामि
श्लोकम् एव श्लोकान्
श्लोकान् श्लोकान् वदिष्यामि
उत्तमं निर्मला भगिनि अग्रे धन्यवादः भगिनि गृहं कदा आगमिष्यति
सप्तवादने आगमिष्यामि
उत्तमं सप्तवादने आगमिष्यामि उत्तमं अग्रे सागरि भगिनि भोजनं स्वीकरिष्यति
अहं सप्तवादने भोजनं करिष्यामि खादिष्यामि
खादिष्यामि अत्र भोजनं मीन्स् इन् जनरल् टु एन्जाय् भुज् 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 दात्
इट् डज़न्ट् मीन् फूड् भगिनि
इट् मीन्स् एन्जायिङ्ग् फूड् सो अत्र भुङ्क्ते
सो वाट् वुड् दि आन्सर् बि देन्
एकनिमिषं अत्र भुज् 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 धातु भुनक्ति भुङ्क्ते भुञ्जाते भुञ्जते सो सो दिस् इस् अ डिफिकल्ट् क्रियापदं सो अतः भोजनं सो कृदन्तरूप न कृदन्त नाट् अवेलेबल् अस्तु सो अत्र भोजनम् इति वदामः चेत् भोजनं भुज् धातु सो इट् बिकम्स् ल्युट् प्रत्ययः ल्युट् भोजनं लैक् खादनं भोजनं करिष्यामि सो सो दिस् इस् द प्रापर् वे आफ् सेयिङ्ग् इट् भोजनं करिष्यामि भोजनं खादामि इति ऐ मीन् दे यूस् इट् बट् इट् इस् नाट् करेक्ट्
But I think I said karishyami first and then changed it.
Aamam, karishyami samyak.
Bhagini.
Bhojanam karishyami is samyak bhagini. Astu, Savita bhagini.
Aam bhagini. Alpahare kim pasyati? Alpaharam is snacks, isn't it bhagini?
Snack, breakfast, like that.
Pasyati. is
for liquid drink.
Drink. Alpahare aham juice.
Phalarasam.
Phalarasam, ma'am, bhagini. Alpahare aham phalarasam pibami.
Pasyami. Pasyami. भविष्यत् कालरो अहं पास्यामि पानीयं पानीयम् इति जलं
लिक्विड्
एनी लिक्विड् इस् पानीयं देन् विसे जलम् अथवा काफि पानं काफि अथवा चाय् पानं लैक् अस्तु उषा भगिनी
किं सायङ्काले किञ्चित् क्रीष्यति
सो अत्र वेन् दिस् किम् इस् देर् इस् लैक् वा क्रेष्यति वा अथवा यु हाव् टु रीड् इट् लैक् दिस् किं सायङ्काले किञ्चित् क्रेष्यति लैक् देट्
किं सायङ्काले किञ्चित् क्रेष्यति अहं सायङ्काले किञ्चित् वस्त्राणि क्रेष्यामि
सो वेन् यु से किं दट् इस् एकवचनं किञ्चित् वस्त्रं क्रेष्यामि कानिचित् वस्त्राणि क्रेष्यामि लैक् कानिचित् वस्त्राणि क्रेष्यामि अस्तु किं सङ्गीतं श्रोष्यति श्रीनिवास महोदय
किं सङ्गीतं श्रोष्यति आम् सङ्गीतं श्रोष्यामि
सम्यक् श्रोष्यामि अस्तु सो झटिति दृष्ट्वा अग्रे गच्छामः गीतायाः अधस्तनश्लोकेषु लृट् अधोरेखया अङ्कयत् अण्डर्लैन् कुत्र भविष्यत्कालरूपम् अस्ति इति दुर्गाणि अस्तु श्रोष्यसि विनक्ष्यसि मन्यसे सो नोटिस् आल् दीस् थिङ्ग्स् मन्यसे निरोक्ष्यति वा बहु अस्ति अग्रिमवर्गे अस्तु मञ्जितदुर्गाणि मत् प्रसादात् अस्तु अन्य किं
प्रसादातिरिष्यति
न इच्छसि
अनेकश्लोकानि सन्ति भगिनि
अनेक आमाम्
अनेकानि सन्ति
प्राप्स्ये भविष्यति एवम् एकवारं पश्यन्तु अस्तु सो वयं समापयामः आवश्यकं चेत् ओ अस्तु यतोदाहरणं वदत ओके वि विल् स्टार्ट् वित् दिस् द नेक्स्ट् टैम् अस्तु वा नम्बर् 4 पश्यामः अस्तु इदानीं समापयामः शान्तिमन्त्रम् उक्त्वा ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः
धन्यवादः
धन्यवादः पुनर्मिलामः धन्यवादः